श्रीशिवाच पुरा शुंभमिशुंभभ्यामशूरभ्यां शचीपतेः त्रैलक्यं जग्रभागश्च हीतामोदबलश्रयत् तावेव सूर्यतां तद्वदधिकारं तथैलवं पौरेरमसजम्यं च चक्राते वरुणस्य च तदेव पवनद्धिं च चक्रतुर्बह्निकर्म च ततदेवाभिनिर्धूता भ्रष्टराज्याः पराजिताः हिताधिकारस्त्रिदशस्तभ्यं सर्वे निराकृताः महाशूराभ्यां तान् देवीं संस्मरन्त्य पराजितम् सयास्माकं वरो दत्तो यथा पत्रु स्मृताखिलाः भवतां नाशयिष्यामि तत्क्षणात् परमापदः इति कृत्वा मतिं देवा हीमवन्तं नगेश्वरं जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतिष्ठुः देवाऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रदीप्यै भद्रायै नियतः प्रणतास्मतम् रौद्रायै नमो नित्यायै गौर्यै धत्यै नमो नमः जत्नायै चेन्नरूपिण्यै सुखायै सततं नमः कल्याण्यै प्रणतावृद्ध्यै सिद्ध्यै कुर्मो नमो नमः नैरित्यै भूभृदां लक्ष्मै सर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै त्यक्त्यै तथैव कृष्णायै धूम्रायै सततं नमः अतिसौम्यातिरौद्रायै मदास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु विष्णुमायेति सर्विता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु चेतनत्यभिधीयते नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु सुधारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु कृष्णारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शांति रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु कांति रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु सृष्टिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। इन्द्रियाणामधिष्ठात्री भूतानां चाधीनेषु या भूतेषु सर्वगतस्यै व्याप्तिदेव्यै नमो नमः। चितिरूपेण या कृष्णम् एतद्व्याप्यस्थिरा जगत् नमस्तस्यै 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 नमो नमः। तूतासूरैः पूर्वमभीष्टसंश्रयात् तथा सूरेन्द्रेण दीनेषु सेविता करतु सा नः शुभो हेतुरीश्वरी शुभानि भद्राणि अभिहन्तु चापदः। या सम्प्रतं चैत्यपापीतैरस्माभिदिशा च सूरैर्नमस्यते या च सुरिता तत्क्षणमिव हङ्गीनः सर्वापदभक्ति दीनम्रमूर्तिः। ऋषिरुवाच एवं स्तवादियुक्तानां देवानां तत्र पार्वती नातुमभ्याजयौतो ये जह्नव्या नृपनन्दन साब्रवित्तां सुरां शुभ्रुर्भवद्भिः स्त्रियवित्रका शरीरकोशतश्चर्याः समुद्भूताव्रवीक्षीवा तत्रं ममैतत्प्रियते शुम्भदैत्यनिराक्रीतै देवै समेतै समरे निशुम्भेन पराजितै शरीरकोशाद्यप्तस्या पार्वत्या निःस्त्रीदम्बिका कौशिकीति समस्तेषु तदलोकेषु गीयते। कस्यां विनिर्गतायां तु कृष्णाभूत् सा पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया ततं वीतं परं रूपं बिभ्राणं सुमनोहरं ददार्षचण्डमुण्डस्य भित्तौ शुम्भनी शुम्भयो तभ्यां शुम्भाय चख्याता अतीव सुमनोहरा कव्यास्ते श्रीमहाराज भाषयन्ती हिमाचलं नैव तादृक्कचिद्रूपं दृष्टं केनोचिदुत्तमं गयतां कव्यसौ देवी गृह्यतं चाशुरेश्वर जन्ममलचर्वङ्गी योगयन्ती दिशा दिशा धातु तिष्ठति दैत्येन्द्र त्वां भवान् द्रष्टुमर्हति जानी रत्नानि मणयो गजस्वादीनि वै प्रभो शैलत्येतु समस्तानि सम्प्रतान्नभान्ति ते गृहे ऐरावतः समानीतु गजरत्नं पुरन्दरात् परिजाततरुश्चायं तथैव चैश्रवाहयः विमानं हंससंयुक्तम् एतत् तिष्ठति चिन्दने रत्नभूतमिहानीतम् यदाशीर्वेधसद्भुतम् निधीरेश महापद्मः समानीतधनेश्वरात् किञ्जालकीनिङ्गदौ चद्भिर्मालामम्लालपङ्कजम् सप्तन्ते वारुणञ्जेः कञ्चनस्तरितिष्ठति तथायं स्यन्दनोबरु यः प्राचीत् प्रजापति मृत्तरूपिक्रन्तिदा नाम शक्तिभीषत्वयाधीता पाशः सलिलरज्जस्य धातुस्तव परिग्रहे निशुम्भस्याभिजातश्च समस्तारत्नजातयः वह्निरपि ददौ तुभ्य मग्निशौचे च वाशसि एवं दैत्येन्द्ररत्नानि समस्तन्याहीतानि ते श्रीरत्नमेषा कल्याणी त्वयाकस्मान्न गृह्यति ऋषिरुवाच ईशम्येति वचः शुम्भः सतदाचण्डमुण्डयोः प्रेषयामाश सुग्रीवम् दूतम् दिव्या महाशूरम् इति चेति च वक्तव्या सागत्वा वचनान् मम यथा चध्येति सम्प्रीत्या तथा कर्यम् तया लघु सतत्र गत्वा जप्तास्ते शैलदेशेति शोभने सा देवी तम् तदम् प्राह लक्ष्मणमोधुरया गिरा दूतौ वाच देवी दैत्येश्वरः शुम्भ त्रैलक्ये परमेश्वरः दूतोऽहम् प्रेषितस्तेन त्वत्स्वकाशमिहागतः अव्याहतग्रः सर्वासु यः सदा देवयोनिषु निर्जिताखिल दैत्यादिः सजदाः श्रेणोस्तत् मम त्रैलक्यमखिलम् मम देवावसानुगाः यज्ञभागानहम् सर्वा नूपासनामि पृथक् पृथक् शैलत्ये वररत्नानि मम वश्यन्यशेषतः तथैव गजरत्नानि धृत्वा देवेन्द्रवाहनम् क्षीरुदोमथनद्भूत मश्वरत्नम् ममामरै उच्चैः श्रवसङ्गम् तत् प्रणीपत्या समर्पितम् यानि चन्यान् देवेषु गन्धर्वेषु रजेषु च रत्नभूतानि भूतानि तानि मध्येव शोभने श्रीरत्नभूतान् त्वां देवि लोकमन्यामहे वयम् सा तमस्मानुपागच्छ यत् रत्नो भुजो वयम् मां वाममानुजम् वापीनी शुम्भो मुरुविक्रमम् भजस्त्वम् चञ्चलापङ्गी रत्नभूताशि वै यतः परमैश्वर्यमतुलम् प्राप्स्यसि मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहतान् व्रज ऋषीरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तस्मीता जगौ दुर्गा भगवती भद्रा ययेदम् धार्यते जगत् विभुवाच सत्यमुक्तम् त्वयानत्र मिथ्या किञ्चित् तयोदितम् तैलक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किं त्वत्र यत्प्रतिज्ञातं मिथ्या तस्यापि कथं श्रूयतामल्पबुद्धित्वात् प्रतिज्ञाया क्रीता पुरा जो मां जयति संग्रामे जो मे दर्पं बपूहति जो मे प्रतिवलो लोके समे भक्ता भविष्यति सदा गच्छतु शुम्भोत्र निशुम्भो वा महाशुरः मां जित्वा किञ्चिरेनत्र पाणिं गृह्णातु मे लघु दूतो वाच अवलिप्ताशुमैवं त्वं देवी ब्रूहि ममाग्रतः रैलत्येकः मानुत्तिष्ठे दग्रे शुम्भानि शुम्भयो अन्येषामपि दैत्यानां सर्वे देवा नवैधि तिष्ठन्ति सम्मुखे देवी शीर्पुनः प्रीतमेकिता इन्द्रात्याः सकला देवा तत्सूर्येषां न संयुगे शुम्भादीनं कथं तेषां श्रीप्रजाशी सम्मुखम् सात्वं गच्छमयैव उक्ता पार्श्वं शुम्भनि शुम्भयो केशाकर्षणनिर्भूत गौरवामागमिष्यसि यद्युवाच इवमेतादबली शुम्भो निशुम्भश्चापि निर्जवान् किं करोमि प्रतिज्ञामि जगनालोचिता पुरा तत्त्वं गच्छमयोक्तन्ते जगेतत् सर्वमादृतः सदा चक्ष्वाशुवृन्दाय स च दुःखं करोति यत् इति मार्कण्डेयपुराणे सावर्णीके मन्वन्तरे देवी माहात्म्ये दिव्यादूतसंवादः।